इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी अथ वार्ताः विदेशमन्त्री डॉ एस जयशंकरः अवोचत् यत् क्वाड इति शिखरसम्मेलनं हिन्द प्रशान्त क्षेत्रस्य स्थिरतायै प्रगतये समृद्धये च एकेन महत्वपूर्ण शक्तित्वेन विराजते एकस्मिन् सामाजिकान्तर्जालीय सन्देशपटले डॉ जयशंकरः जापानदेशीयेन विदेशमन्त्रिणा ताकेशी इवा इत्यमुना अमेरिकादेशीयेन च विदेशमन्त्रिणा एंटनी ब्लिंकन इत्यनेन सह मिलित्वा अस्य क्षेत्रस्य आवश्यकतां प्रपूरयितुं प्रतिबद्धताम् उररीकृतवान् क्वाड इत्येतस्य विंशतितमे वार्षिक सम्पूर्त्यवसरे क्वाड इत्येतस्य विदेशमन्त्रिणाम् एकस्मिन् संयुक्तोपवेशनस्य वक्तव्ये अभिहितं यत् आपदुद्धार कार्याणाम् आपत्कालिक प्रतिक्रियायाः कार्यम् अधुना एकस्मिन् पूर्ण सहभागे परिवर्तितम् अपि च इदं सूच्यते यत् क्वाड समूहस्य देशाः सम्प्रति हिन्द प्रशान्त क्षेत्रस्य सहभागिभिः देशैः सह ऐक्यभावनया सह कार्यं विधास्यन्ति अवधेयास्पदं वर्तते यत् क्वाड समूहस्य देशाः ऋतुदशा परिवर्तन कर्करोग महामारी इत्येतान् विषयान् आतंकवाद आन्तर्जालिकापराध सदृशेषु समाह्वानेषु ध्यानकेन्द्रितं कुर्वन्ति ध्यातव्यमस्ति यत् क्वाड इति चतुर्णां देशानां एकः समूहः विद्यते यस्मिन् ऑस्ट्रेलिया भारत जापान अमेरिका देशाः समाविष्टाः सन्ति समग्रे हि विश्वे जनाः पञ्चविंशत्युत्तर द्विसहस्रतमवर्षस्य नूतनवर्षस्य स्वागताय उत्सुकाः दृश्यन्ते राष्ट्रपतिः द्रौपदी मुर्मुः नववर्षस्य पूर्वसन्ध्यायां जनेभ्यः शुभकामनाः प्रदत्तवती स्वीये शुभसन्देशे राष्ट्रपतिः उक्तवती यत् इदं नववर्षं समेषां जीवने नूतनानाम् आशानां स्वप्नानां च प्रारम्भस्य प्रतीकं भवतुति उपराष्ट्रपतिना जगदीप धनखडेनापि ह्यः सकलेभ्यः जनेभ्यः नववर्षम् आलक्ष्य शुभसन्देशाः प्रदत्ताः अनेनोक्तं यत् जनाः दृढसंकल्पेन सह लोकतान्त्रिक मूल्यानि आधृत्य अग्रे गच्छन्तु इति भारतस्य प्रमुख क्षेत्राणाम् उत्पादनवृद्धिः अस्मिन् वर्षे नवम्बर मासे वार्षिकाधारे 4.3% यावत् संवर्धिता इति वाणिज्यमन्त्रालयेन ह्यः दत्तांशः एकः प्रकाशितः प्रदत्तदत्तांशानुसारं कृष्णांगार विद्युत्शोधक उत्पाद उर्वरकादीषु क्षेत्रेषु सकारात्मिकी वृद्धिः दृष्टा इति महाराष्ट्रे आतंकवाद विरोधि दलेन दिसंबर मासे राज्यस्य विविधेषु भागेषु अवैधरीत्या निवसन्तः 43 संख्यकाः बांग्लादेशीया अप्रवासिनः नागरिकाः निगडिताः अपि च 19 प्राथमिक्यः पञ्जीकृताः अनेन दलेन अत्रावधौ निवसद्भ्यः बांग्लादेशस्य आधारपत्रम् अन्यच्च प्रमाणपत्रं समेत्य अवैधपत्राणि अनेकानि गृहीतानि केन्द्र प्रशासनेन राष्ट्रिय स्वच्छ गंगा अभियानस्य अन्तर्गतम् उत्तरप्रदेशस्य चन्दौली मणिकपुरयोः कृते 270 कोटि रूप्यकाणां परियोजनायाः अनुमोदनं कृतमस्ति ह्यः राष्ट्रिय स्वच्छ गंगा अभियानस्य 95तमायाः कार्यकारी समितेः विहितोपवेशने अस्य अभियानस्य महानिदेशकस्य राजीव कुमार मित्तलस्य अध्यक्षतायां पवित्र गंगा नद्याः संरक्षणाय समर्पिताः नैकाः परियोजनाः अनुमोदिताः एतेषां पदक्षेपाणाम् उद्देश्यं गंगा नद्याः स्वच्छतायाः सतत विकासस्य सांस्कृतिक महत्वस्य च संरक्षणस्य संवर्धनमिति वर्तते अनेन अभियानेन बिहारस्य बक्सर जनपदेऽपि नदी संरक्षणाय 750 कोटि रूप्यकाणां एका महत्वाकांक्षिणी परियोजना अनुमोदिता प्रधानमन्त्री नरेन्द्रमोदी अभिव्यक्तवान् यत् भारतं प्रतिभायाः शक्तिकेन्द्रमस्ति सहैव नवाचार साहसाभ्यां पूरिताभिः यात्राभिरपि संवलितमस्ति एकस्मिन् सामाजिक सन्देशे श्रीमोदी ग्रीन आर्मी इत्येतस्य उद्धरणं प्रदत्तवान् पुनश्च तासां कार्याणि प्रशंसितवान् ग्रीन आर्मी एकः वाराणस्याः देवरायां दृढसंकल्पितानां समूहानां एकः अस्ति इति